एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः यमपञ्चक पर्वणः समाप्ते अनुपदमेव राजधानी प्रवृत्तेषु तराई क्षेत्रस्य जनपदेषु छठ पर्वणः पूर्वकार्यम् प्रारब्धमस्ति। पाशुपत क्षेत्रस्य गुहेश्वरी मन्दिरस्य निकटस्थे बागमती नद्याः तटे छठ पूजा स्थानानि निर्मीयमाणानि सन्ति। गुहेश्वरी मन्दिरात् गौरीघाटस्थानम् यावत् क्षेत्रम् आकर्षकरूपेण सज्जीकृत्य छठ पूजा स्थानानि निर्मीयमाणानि वर्तन्ते। क्षेत्रेऽस्मिन् पञ्चसप्तत्यधिक षड्शतस्य पूजा स्थानानाम् निर्माण कार्यम् प्रारब्धमस्तीति गौरीघाट छठ पूजा समित्या ज्ञापितम् वर्तते। एवमेव काष्ठमण्डपस्य कमलपोखरी नागपोखरी प्रवृत्तिषु स्थानेष्वपि छठ पर्व समायोजयितुम् पूजास्थलानि निर्मीयमाणानि सन्ति। व्रतालुभिः छठ पर्वणः मुख्यदिने कार्तिक शुक्ल षष्ठ्यां तिथौ सायम् अस्तम् गताय सूर्याय अर्घ्यम् दत्त्वा तदपरस्मिन् कार्तिक शुक्ल सप्तम्यां तिथौ दीयमानाय सूर्याय अर्घ्य प्रदानस्य पश्चात् छठ पर्व समाप्तिम् इति। अस्मिन् वर्षे अस्यैव कार्तिक मासस्य द्वाविंशे दिवसे परश्वः बृहस्पतिवासरे छठ पर्वणः मुख्यम् दिनम् वर्तते। ऊर्जा जलस्रोत सेचन मन्त्री दीपक खड्का भारते प्रारब्धे अन्तर्राष्ट्रिय सौर्य गठबन्धनस्य सम्मेलने सहभागी सम्भूतोऽस्ति। पञ्चदशोत्तर द्विसहस्रतम ख्रीष्टवर्षे फ्रांस देशस्य पेरिस नगरे संयुक्त राष्ट्रसंघे जलवायु परिवर्तन सम्मेलनस्य एकविंश सत्रेण अन्तर्राष्ट्रिय सौर्य गठबन्धनस्य विहिताया घोषणाया अनुसारेण गठबन्धनस्य सप्तमे सम्मेलने मन्त्री खड्का सहभागी सम्भूतोऽस्तीति विद्युत विकास विभागस्य महानिर्देशक नवीन राज सिंह अज्ञापयत। सम्मेलने सहभागिभिः विंशत्यधिक शतस्य राष्ट्राणाम् प्रमुखैः प्रतिनिधिभिश्च वा सौर्योजसः प्रवर्धनाय क्रियाशील गठबन्धने स्वस्य सहभागिता भवतीति प्रतिबद्धता व्यक्तास्ति। सम्मेलने आविश्वम् ऊर्जसः प्राप्तिम् वर्धयितुम् ऊर्जसः सुरक्षाम् सुनिश्चेतुम् ऊर्जसः विकासस्य निर्देशकस्य रूपेण सौर्योजसः प्रविधेः वर्धमानस्य उपयोगस्य च विषयेषु विमृक्षते इति महानिर्देशकः सिंह असूचयत। कृषि पशुपक्षी विकास मन्त्रालयेन वर्षेस्मिन् धान्यकृषेः उत्पादनम् न्यूनम् भविष्यतीति अनुमितम् वर्तते। कृषकैः धान्यस्य पाकस्य भवनस्य पश्चात् धान्यप्रवेशनस्य समये एव वातावरणस्य प्रतिकूल भवनेन धान्यकृषेः उत्पादने न्यूनता आगमिष्यतीति मन्त्रालयेन अनुमितम् वर्तते। कृषि पशुपक्षी विकास मन्त्रालयेन गताश्विन मासस्य दशमात् द्वादशम् दिवसम् यावत् देशस्य प्रायः स्थानेषु सम्भूतया भीषण वृष्ट्यापि धान्यकृषौ तथैव प्रभावः सर्जितोऽस्तीति सूचितम् वर्तते। मन्त्रालयस्य सूचनाधिकृतः महानन्द जोशी वर्षेस्मिन् धान्य प्रवेशनस्य समये वातावरणस्य अनुकूलतायाः अभावात् धान्यकृषेः उत्पादनम् न्यूनीभविष्यतीति अनुमितम् अस्तीति असूचयत। राष्ट्रिय धान्य कृषि अनुसन्धान कार्यक्रमस्य संयोजक डाक्टर मथुरा यादव गतास्मिन् मासे सम्भूताया भीषण वृष्टेः कारणेन कोशी मधेस बागमती प्रदेशेषु धान्य कृषि उत्पादने प्रभाव सृष्टोस्थिति अभूचत। मन्त्रालयेन जलवायु परिवर्तन जन्य विपद कारणेन धान्य कृषौ जातया ख्यात्या सम्बद्धम् विस्तृतम् विवरणम् निर्मातुम् आगामिनः मार्गशीर्ष मासस्य अन्तिम सप्ताहे प्रादेशिक गोष्ठीः आयोक्ष्यमाणाः सन्ति। ह्यः सम्भूतायाः वृष्टेः कारणेन बीपी राजमार्गस्य कतिसूचित स्थानेषु खोलिकासु पंकजातस्य पतनस्य कारणेन यातायात सेवायाम् प्रभाव सृष्टोऽस्ति। बीपी राजमार्गस्य अन्तर्गतायाम् दोलीखेल नगरपालिकायाः एकादश वडा क्षेत्रस्य हनुमान माध्यमिक विद्यालयस्य निकटस्थायाम् खोलिकायाम् दुरापन्नस्य पंकजातस्य कारणेन राजमार्गे एकपक्षीय रूपेणैव यातायातम् सञ्चाल्यमानम् अस्तीति प्रहरी सूचयति। काभ्रे जनपद प्रहरी कार्यालयस्य अनुसारेण ह्य वृष्ट्याशैव दुरापन्नस्य पंकजातस्य कारणेन पातले क्षेत्रस्थान निकटस्थायाम् खोलिकायाम् कतिसूचित समये समस्या सृष्टा सत्यपि सम्प्रति एकपक्षीय रूपेण यातायात सेवा सञ्चाल्यमाना अस्ति। प्रतिकूल जलवायोः कारणेन देशस्य उड्डयन सेवा ह्यः प्रभाविता आसीत्। जलवायोः प्रतिकूलस्य पश्चात् प्रकाशस्य दुर्बली भवनस्य कारणेन विमानानाम् उड्डयने प्रभावः सृष्टः इति त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्य महाप्रबन्धकः जगन्नाथ निरौला असूचयत्। ह्यः काष्ठमण्डपात् तराई क्षेत्रस्य विमानस्थलेषु नियमितरूपेण विमानानाम् उड्डयनम् सम्भूतम्। सदपि हिमालयेषु पर्वतेषु च प्रायः क्षेत्रेषु उड्डयनम् सम्भूतम् नासीत् इति महाप्रबन्धकः निरौला असूचयत। अन्तर्राष्ट्रियोड्डयनानि तु सामान्यरूपेण जायमानानि सन्तीति कार्यालयेन ज्ञापितम् वर्तते। सप्तरी जनपदस्य कञ्चनरूपनगरपालिकायाः चतुर्थवडा क्षेत्रस्य त्रियुगा नद्यां निमज्य ह्य बालिकाद्वयं मृतं वर्तते, एको जनः विलुप्तोऽस्ति। स्थानीयस्य श्रवण महतोविदस्य नववर्षीय पुत्री प्रतिभा महतो, सुरेश सदा इत्यस्य अष्टवर्षीया पुत्री जितनी साहश्च नद्यां निमज्य मृते इति सप्तरी जनपद प्रहरी कार्यालयस्य प्रहरी निरीक्षकः उदय कुमार रायः असूचयत। एतस्य अनुसारेण कञ्चनरूप नगरपालिकायाः चतुर्थवडा क्षेत्रस्य जगदपुरस्थिते धनकटा स्थाने त्रियुगा नद्या नद्यां स्नानस्य क्रमे बालिकात्रयं निमग्नम् आसीत्। तासु द्वे बालिके प्राप्ते स्थानीय अष्टवर्षीया काजल खंग इदानीमपि विलुप्ता अस्ति। अर्घाखाँची जनपदस्य भूमिका स्थान नगरपालिकायाः जयठाटी स्थाने दुरापन्नायां बसयानस्य दुर्घटनायां जनद्वयं मृतम्, अष्टादश जनाः आहताश्च वर्तन्ते। पञ्चम षष्ठवडा क्षेत्रयोः सीमक्षेत्रस्य जयठाटी स्थाने ह्यः सायं देउसी भैलो कार्यक्रमस्य सञ्चालनस्थले बसयानस्य गतिनियन्त्रणोपकरणे विफले सति दुर्घटना दुरापन्नासीत्। भैलो कार्यक्रमे सहभागिनां जनानां बसयानेन प्रहारस्य पश्चात् आहता द्वाविंशति वर्षीया तारा श्रेष्ठ अर्घाखाँची चिकित्सालय उपचारस्य क्रमे मृतेति प्रहरी नायब उपरीक्षक चक्रबहादुर मल्लः असूचयत। एको जनः सत्यापयितुम् अवशिष्टो स्थिति असौ असूचयत। ह्यः एव अर्घाखाँची जनपदे भारतीय कारयानम् दुर्घटितम् सदेको जनः मृतः आसीत्। कारयान दुर्घटनायाम् मालारानी ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य टिमुरे निवासी षड्विंशति वर्षीय नवीन नेपाली मृतोस्थिति प्रहरिणा ज्ञापितम् वर्तते। वरिष्ठार्थशास्त्रिणः प्रगतिशीलवादी लेखकस्य स्वर्गीयस्य गोविन्द प्रसाद लोहनी इत्यस्य षण्णवतितम्याः जन्मजयन्त्याः अवसरे एकल व्यक्तित्व समाजेन अस्ट्रेलियादेखि यूरोपसम्मको यात्रा नामकं पुस्तकं लोकार्पितं वर्तते। बागमती प्रदेशस्य सभामुख भुवन पाठक, पूर्व मुख्य सचिव उमेश मैनाली, पूर्व परराष्ट्र सचिव मदन भट्टराई, रविन्द्र मिश्र, रमेश लेखकश्च पुस्तकमेतत् लोकार्पयन्। स्वर्गीयेण लोहनी इत्यनेन स्वस्य षण्णवति वर्षीय जीवनकाले षष्टि वर्षाणि स्वस्य दैनन्दिनम् लिखितम् वर्तते। स्वर्गीयस्य लोहनी इत्यस्य नेतृत्वे भोग कमरेड जाने होइन आजको चिन प्रवृत्तिनि पुस्तकानि लेखाश्च प्रकाशिताः वर्तन्ते। आविश्वम् समग्रत सम्भूतः अभिरुचेः विषय अमेरिकादेशस्य राष्ट्रपतेः निर्वाचनस्य मतदानमध्ये जायमानमस्ति। निर्वाचने प्रजातान्त्रिक दलस्य पक्षतः वर्तमान उपराष्ट्रपति कमला ह्यारिस, रिपब्लिकन दलस्य पक्षतः पूर्व राष्ट्रपति डोनाल्ड ट्रम्प च प्रतिस्पर्धायां वर्तेते।